सविता धरात्ता
कविं कवीना
सखा
ब्रह्मन्नो तेभिरो तेभिः